ಅನೇಕತಾನ ಹೃದಯ ಯೋ ಎಂ ಚರಣ ಅತ್ಯಂತ ವಾಕ್ಯ ಪ್ರಥಮ ಮಧ್ಯೆ ಕಿಂಚಿತ್ಯಕ್ತಮಸ್ತಿ ಮಯಾ ಪುತ್ರಾಹಸ್ರವಾಹಕರ್ತಾಭಿಂದೆ ಸ್ಮರತಿವ ನೋ ಕಲ್ಪಾಪಾಯ ಇತಿ ಅಗ್ರೇ ಆಕ್ರಂದಾರ್ಥೈ ಇತಿ ವಚನಂತು ಚಕ್ತವಾನ್ ಅಸ್ತಿ. ತದನಂತರ ಗದ್ಯ ಭಾಗಾಯ ರಸ ನಿರ್ವಹಣೈಕ ದಾನ ಹೃದಯ ಯೋ ಯಂ ಚ ನ ಅತ್ಯಂತ ನಿರ್ವೋಢು ಇಚ್ಛತಿ. ರಸ ನಿರ್ವಹಣೈಕ ದಾನ ಹೃದಯ ರಸಸ್ಯ ನಿರ್ವಹಣಂ ಕರ್ತುಮೇವ ಯಃ ಇಚ್ಛತಿ ದಾಶಃ. ಹೃದಯ ಕಥಿತ ರಸಸ್ಯ ನಿರ್ವಹಣಂ ಕರಣೀಯಂ ಇತಿ ತಸ್ಯ ಮನಸಿ ಭಾವನಾ ಅಸ್ತಿ ತಾವತ್ ಜನಃ. ಅತ್ಯಂತ ನಿರ್ವೋಢು ಇಚ್ಛತಿ ಕದಾಚಿತ್ ತದ ಅಂತ ಪರ್ಯಂತ ನಿರ್ವೋಢು ನ ಇಚ್ಛತಿ ಕುತ್ರಚಿದೇ ಗೃಹಾತಿ ಆರಂಭ ಅಂತ ಪರ್ಯಂತ ನ ನಯತಿ ಸತ್ಯ ಉದಾಹರಣ ಅಗ್ನಿಮಪದ್ಯೆ ಪ್ರತಿಮಸ್ತಿ. ಸಂತೋಚ್ಯೋಹನ್ಯತೇವ್ಯಾಹಸನ್ ಪ್ರೇಯಾನ್ ಜನ ಪ್ರೇಯಾನ್ ಅಪ್ರಿಯ ಜನ ಕನ್ನಡೆ ಪ್ರೇಯಸೀ ಶಬ್ದ ಪ್ರಸಿದ್ಧ ಪ್ರೇಯಾನ್ ಶಬ್ದ ಪ್ರಸಿದ್ಧ ನಾಸ್ತಿ. ಪ್ರೇಯಾನ್ ಶ್ರೇಣಿಗೆ ಪ್ರೇಯಸಿ ಶ್ರೇಯಾನ್ ಶ್ರೇಯಸಿ ತಥಾ ಪ್ರೇಯಾನ್ ಕಷ್ಟನ ಜನ ಪ್ರೇಯಾನ್ ಜನ ಹೃದಯ ನಾಯಿಕೆಯ ಸಹ ಧನ್ಯತೆ ಕಾಣ್ಯತೆ ನಾಯಿಕ ರುದತಿ ನಾಯಕಂ ತಾಳಬೇಕು ವ್ಯಕ್ತಿ ಪ್ರಾಪಿತಃ ದುಶ್ಚೇತಿತಂ ಕೃತ್ವಾ ಆಗತವಾನ್ ಅಸ್ತಿ ಅಕಾರಣೀಯವನ್ನು ಕೃತ್ವಾ ಸಹ ನಾದಂ ಗೃಹಂ ಆಗತವಾನ್ ಅಸ್ತಿ. ತದಾ ನಾಯಿಕ ತಂ ಕಿಂ ಕುರ್ವತಿ ಅಸ್ತಿ ಇತಿ ಚೇತ್ ಕೋಪಾತ್ ಕೋಮಲ ಲೋಲ ಬಾಹುಲತಿಕಾ ಪಾಠೇನ ಬದ್ಧ್ವಾ ಗೃಹಂ ಬಾಹುಪಾಠೇನ ತಂ ಗೃಹಂ ಬದ್ಧೋತಿ ಅಸ್ತಿ ಬಾಹುಕೀ ಪಾಠವಿದೆ ಬಾಹುಪಾಠೇನ ತಂ ದೃಢಂ ಬದ್ಧ್ವಾ ಕಿಮರ್ಥಂ ಕೋಪಾತ್ ತಸ್ಯಾಹ ಬಾಹು ಸಹಂತಃ ಇತ್ಯೇತ ಕೋಮಲ ಲೋಲ ಬಾಹು ಲೋಕ ಅತ್ಯಂತ ಕೋಮಲೌ ತಥೈವ ಚಂಚಲೌ ತಸ್ಥಃ ತಾದೃಶ ಬಾಹು ಲತಿಕಾ ಪಾಠೇನ ತೌ ದೃಢಂ ಬದ್ಧವತಿ ಅಸ್ತಿ. ಅತಃ ಕೋಪಾ ಕೋಮಲ ಲೋಲ ಬಾಹು ಲತಿಕಾ ಪಾಠೇನ ತಂ ದೃಢಂ ಬದ್ಧ್ವಾ ಅನಂತರ ಅಂದ್ರೆ ವಾಸನಿಕೇತನ ಪ್ರತಿ ಸಂಸಾರ ನೀಡುವಲ್ಲಿ ಬದ್ಧ್ವಾ ವಾಸನಿಕೇತನ ನೀಡುವಲ್ಲಿ ಕಯಾ ಶೈಲಿ ಕಯಾ ಕದಾಚೇತ ಪ್ರವೃತ್ತ ಸಾಯಂ ಸಾಯಂಕಾಲ ಸಮಯ ಕುತ್ರ ಇತ್ಯೇತ ಸಖೀನಾಂ ಪುರತಃ ಅನ್ಯಾಹ ಸಖ್ಯಃ ಸಂತಿ ತಾಸಾಂ ಸಖೀನಾಂ ಪುರತಃ ಏವ ಏತಂ ಬಾಹು ಪಾಠ ಲತಿಕಾ ಬಾಹು ಲತಿಕಾ ಪಾಠೇ ಬದ್ಧ್ವಾ ಸಾಕ್ಷಾತ್ ವಾಕ್ಯದ ಕೋಪಿ ಖಲದ್ಭಾಷಿತ್ವಿರ ತಸ್ಯ ದುಶ್ಚೇತಿತಂ ಸಂಕುಂತ್ಯ ಏವಂ ಕೃತವಾನ್ ಅಸ್ತಿ ಇತಃಪರಂ ಏವಂ ನ ಕರಣೀಯಂ ಪುನಃ ತದಾ ಏವಂ ನ ಕರಣೀಯಂ ಇತಿ ಪುನಃ ಪುನಃ ವದಂತಿ ಯಃ ತಂ ಅನ್ಯಂ ಧಾರಯತಿ ಏವಂ ಯಃ ಧನ್ಯತೆ ಸಹ ನಾಯಕಃ ಧನ್ಯಃ ಧನ್ಯೋ ಅನ್ಯತೆ ಏವ ಸಹ ನಿನ್ಹುತಿ ಪರಃ ಉಪಹಾರಂ ಕುರ್ವನ್ ಯಃ ಅಸ್ತಿ ತಥಾ ಸನ್ तथा कर्जयन्ति कारयन्ति अस्ति तथा किमपि न भवति चेदेव अहमेव अस्ति अतः कालक्षणः नायकः अत्र रूपकम् आक्षिप्तम् अधिगूढञ्च किमस्ति इत्युक्ते रूपकालङ्कारस्य आरम्भं कृतवान् तर्हि रूपकालङ्कारस्य आरम्भं कृतवान् अन्तपर्यन्तं तस्य निर्वहणं कृतवान् कथम् इत्युक्ते कोमललोलबाहुलसिका पाशेन इति पाशेन बन्धनं कृतं पाशः नाम किं मृतबन्धनार्थं पाशे प्रसार्यते किल जातं पाशेन बन्धनं कृतमासीत् कः पाठः इति चेत् कोमललोलबाहुलसिका एव पाठः अतः कोमलबाहुलसिका पाठः इत्यः रूपकालङ्कारः रूपकालङ्कारः नाम किं मुखं चन्द्रः मुखचन्द्रः इति उच्यते किल मोमवाचकशब्दः प्रमेयवाचकशब्दः द्वयोः भवति तथा रूपकस्य आरम्भः कृतः अस्ति कोमल बाहुलसिका पाठः बाहुलसिका एव पाठः बाहुलसिका पाठेन तद्बाधिनम् इति तस्मिन् अंशे रूपकमुक्तम् अग्रे नायकम् अनन्तरं तं जनं ताडयित्वा इत्यादि इत्यादि उक्तम् अग्रे रूपकं न कृतं किमर्थम् इति पृच्छति चेत् अग्रे यदि रूपकं करोति चेत् बाहुपाठः एव जालम् इत्यभवत् जालप्रयोगः कदा क्रियते मृदयार्थं यदा क्रियते तदा मृदयार्थं दत्वा कः लिख्यते तत्र मृगः कश्चन लिख्यते अतः अग्रे रूपकं गीतं चेत् नायिका मृगः इति वक्तव्यं भवति एतत् पाठम् इत्युक्ते समीचीनम् अभवत् तदा नायिका का भवति चेत् व्याकवधूः भवति नायकः मृगः भवति वासगृहं न जति वासगृहम् इति तु करागृहं भवितुम् अर्हति अथवा पञ्जरं भवितुम् अर्हति मृगस्थापनपञ्जरं भवितुम् अर्हति अतः केवलम् एकस्मिन् अंशे रूपकस्य आरम्भं कृत्वा अग्रे निर्वहणं न कृतवान् अतः रूपकम् आक्षिप्तं किन्तु अनिर्मूढञ्च अन्तपर्यन्तं तस्य निर्वहणं न कृतम् आक्षिप्तं किञ्चिदिव आक्षिप्तम् आरब्धम् अन्तपर्यन्तं तस्य निर्वहणं न कृतम् इति वस्तुतः तस्य अबन्धमः इत्युक्ते मुच्युः इति अर्थः अत्र हसन्नेव अस्ति सः किमपि न प्रोक्तम् इति व्यवहारं कुर्वन्ति परं रसपुत्तये निर्वोढुमिष्टमपियं यत्ना अङ्गत्वेन प्रत्यवेक्षते कुत्रचित् किं करोति इति चेत् रसस्य पुष्टिनिमित्तं कदाचित् निर्वोढुमिष्टमपि निर्वहणं कर्तुम् इच्छति चेत् तद् यत्नात् निर्वहणे अन्तपर्यन्तं नयति कुत्रचित् तद् अपि दृश्यते कुत्रचित् इत्युक्ते एकग्रहः अग्रे बहुदूरपर्यन्तमपि नयति कथम् इति चेत् कालिदासस्य मेघदूतस्य एकं सत्यम् श्यामात्मङ्गं चकितहरिणी ज्ञानात्मङ्गं चकितहरिणी दृष्टिपादम्
प्रेक्षणे दृष्टिपादम्
वक्त्रच्छायां शशिनिधीनाम्
गन्धच्छायां शशिनिधीनाम्
बर्हभारेषु केशान्
बर्हभारेषु केशान्
उत्पश्यामि प्रथमसुनदी
उत्पश्यामि प्रथमसुनदी
शुभ्रूविलासान्
शुभ्रूविलासान्
नैकत्थं सचितपिनदे
हन्ते कथं क्वचिदपि
एषः स्वपत्नीं स्मृत्वा वदन्नस्ति तामेव सम्बोध्य वदन्नस्ति ते भीमो सागरे कतः इति तां उद्दिश्य वदन्नस्ति ते सागरे अहं किं करोमि इति चेत् साक्षात् पुरतः भवती नास्ति अतः भवत्याः दर्शनं कर्तुं न शक्यते अतः किं करोमि इति चेत् यत्र यत्र भवत्याः सादृश्यमस्ति तदेकैकमपि कष्टेन अहम् अन्विष्य अन्विष्य पश्यन्नस्मि कुत्र कुत्र किं पश्यामि इति चेत् श्यामासु अङ्गम् श्यामा नाम प्रियकुलता इति काचित् लता කටිද සජීව දනී ලතා රෝගී හේතු ලතා සත්‍ය ශාමන දිනා සාතු ශාමනෝ තව අංගම උත්පස්ත්‍යාමි තම උද්දේශ පශ්‍යාන් සිවා අතවා ශරීර මත්‍රා සිවා සාධුක මත්‍රිවා ඉති අනුපස්සති ශාමනෝ අංගම උත්පස්ත්‍යාමි චකිතා හරිණී ප්‍රේක්ෂණේ දෘෂ්ටිපාදම් චකිතා හරිණී නේත්‍රේ ජීතායා මුදීයත්තේ චිකිතහරිණී ප්‍රේක්ෂණේ දෘෂ්ටිපාතං සිප්පශ්‍යාමි ගණ්ඩඡායාම් අථවා වක්‍රඡායාම් චිතී චන්ද්‍රේ වක්‍රස්ය ඡායාම් මුඛස්ය ඡායාම් ඡායා නම
කාන්ති
සත්‍ය ඡායායාත දෙන්දවා කාන්ති සති කියලා මුඛස්ය ඡායාම් චිතී සිප්පශ්‍යාමි චන්ද්‍රේ පශ්‍යාමි සිතිනාම් බරහභාරේසු ඒකාන් උපච්චාමි සිතිනාම්
මයුරාණාම්
බරහභාරේසු චිත්තකලාපහ වෝචිල ප්‍රසදහ තස්මින් කලාපේ දේශකලාපේසු ඒකාන් උපච්චාමි යෝමිව ප්‍රතන්සු නදී වීතිසු ප්‍රතන්සු අතිව කෘෂාසු සමුහු කෘෂා ප්‍රතන්සු කෘෂා නදී වීතිසු නදී තරංගේසු භූමිදාසානි තව භූමිදාසානං උත්පස්යාමි ඊමං අහං ඒකමපි උත්පස්යාමි අනන්තරම් වදති ඒ දීරු කොචිදේ තව සාදෘශ්‍යම් ඒකත්ථම් නාහි තව සාදෘශ්‍යම් සර්වමපි ඒකත්ව ඒව අස්ති ඉතිතු නාහි ත්වයිතෝ එතන සර්වම් ඒකත්‍රයිව අස්ති කිසි තව සාදෘශ්‍යම් රැකගන්න කිය මම වහවහ විචාර කරනවා තම ශරීරයේ ඒකෛකම් අතෝ ඒකෛකයේ අංගස්ස සාදෘශ්‍යම් අතේ ඒකෛක වස්තු වස්තුයි අස්ති සර්වම් මම ප්‍රථම සු නදී වීතිසු ඒ භූ විලාසාන් උපච්ඡාමි ස්වාමී දේවකතියේ හේ වීරු ඒකත්ථම් සාදෘශ්‍යම් කොටිද විනා සුත්‍රාමි ඒකත්‍රේව සමෝපි සාදෘශ්‍යම් අස්ති සිත්‍යාගෝ සයිවම් උපනිවර්තිමානහ අලංකාරා රසාමිච්චි හේතු හුකවේ භවති අත්‍රති කృతවානි ජයපතං භව ශාමාසු අංගම් ඉති ඒකම් විදේන් සිතකා ශාමාසු අංගානාම් සාදෘශ්‍යමස්ති පුනහ චකිත හැරී දේශනේ දෘෂ්ටිපාතහ ඖපම්‍යමස්ති කියලා උපමාම් ආරම්භවා ඒකීකන්දාපි තසෛව නයින අන්ත පරියන්ත ඒත් පරියන්තම් ගණ්ඩඡායාම් ඔසිතී ගණ්ඩඡායාම් සිතිනාම් බලවාරේසු ඒසාන් ප්‍රථමසු නදීදීසු ගුරු විලාසානි කියලාවත් පරියන්තම උපදී අතහ කුත්‍රජිත අන්ත පරියන්තම උපදී කුත්‍රජිත ආරම්භයේ උපදී අන්ත පරියන්තම නිර්වචන කරපොච්චි ඉත්‍යාදෝ ඒවං විවන උපනිබ්ධ්‍යමානහ අලංකාරහ ඒවං කුත්‍රජිත උපනිබ්ධ්‍යමානහ අලංකාරහ දැන් ඒ කහ ක්‍රම හොස්තන අත්‍ය ක්‍රමක්ය භංගා වේදේක උක්ත ක්‍රමක්ය භංගා වූති චේත නියමේ මා නිශ්චේ වේවා රතබන්ද හේතු ලක්ෂණ ච තථාවිධමෝ වි මහා කවි ප්‍රබන්දේ ඉති දෘශ්‍යතේ භෝමිහා තරි එවම් නකතම් අන්‍ය ප්‍රකාරේ නකතම් රසභංගෝපි ජාතහ සතුදාහරණ කිම් ඉති පුච්චති චේත මහාකවීනාම් කාව්‍යේසු සදති දෘශ්‍යතේ ලෝකාල ජාතහස්සේ මහාකවීනාම් ප්‍රබන්දේසු तस्य लक्ष्यमपि महाकविप्रबन्धेषु दृश्यते बहुशः बहुत्र दृश्यते किमर्थं न दर्शितवान् तर्हि इति पृच्छति चेत् अग्रिमं वाक्यं वदति तत्तु स्वप्तिसहस्रद्योनितात्मनां महात्मनां दोषोद्भूषणम् आत्मनः एव दूषणं भवति न विभज्यदर्शितम् अस्माकं ज्येष्ठाः ये सन्ति ते स्वप्तिसहस्रद्योनितात्मा बहुभिः सूक्तिभिः तेषाम् आत्मा ज्योतिषः तेषां सर्वेषां तादृशमहात्मनां दूषणं क्रियते चेत् अहं दोषोद्घाटनं करोमि चेत् स्वस्येव दूषणं भवति इति कृत्वा न क्रियते अस्माभिः इत्युक्ते परम्परायां श्रद्धा इदानीम् आचार्यः दोषाणि न कृतवन्तः इति न तत्रापि किन्तु तेषाम् अन्ये गुणाः अस्माभिः द्रष्टव्याः पुनः तत्रापि दोषः एव इति दर्शयामश्चेत् तदस्माकमेव दूषणं भवति इति कृत्वा अस्माकं श्रद्धा प्रयच्छते योगोद्घोषणम् आत्मनः एव दूषणं भवति इति न विभज्य दर्शितम् किन्तु रूपकालेः अलङ्कारबद्धस्य या इयं व्यञ्जकत्वे रसादिविषये लक्षणादिदर्शिता रूपकाले अलङ्काराणां विषये या लक्षणा इदानीं दर्शिता अस्ति तां स्मरन् स्वयं च अन्यलक्षणम् उत्प्रेक्षमाणः इत्यलक्ष्यक्रम पतितम् अनन्तरोक्तम् एनम् ध्वनेः आत्मानम् उपनिबध्नाति सुकविः समाहितचेताः तदस्य आत्मलाभम् भवति महीयानिति इदानीं यथा उक्तमस्ति अनेन क्रमेण बहुविचिन्त्य यदि निबन्धनं करोति तदुत्तमं कार्यं भवति इति आहत्य सुकविः समाहितचेताः सन् यदि उपनिबन्धनं करोति तदा तस्य रसस्य आत्मलाभः भवति रस एव आत्मरूपेण एवं कृत्वा एतावत्पर्यन्तं तस्य विषयः भवति इति चेत् असंलक्ष्यक्रमध्वनिः इति परं संलक्ष्यक्रमध्वनिः इति विषयः वक्तव्य तद्विषये भवति क्रमेण प्रतिभास्यात्मा
क्रमेण प्रतिभास्यात्मा
योऽस्यानुष्वानसन्निभः
योऽस्यानुष्वानसन्निभः
शब्दार्थशक्तिमूलत्वात्
शब्दार्थशक्तिमूलत्वात्
कोऽपि द्वेधाविवर्तितः
कोऽपि द्वेधाविवर्तितः
एतावत्पर्यन्तम् असंलक्ष्यक्रमध्वनेः उदाहरणानि दर्शितानि तर्हि वेदाः असन्त्याः गणेतुमेव न शक्याः यः क्रमेण प्रतिभाति नाम असंलक्ष्यक्रमध्वनिः यः क्रमेण प्रतिभाति सः अनुस्वानसन्निभः अनुस्वानसन्निभः क्रमेण प्रतिभाति करो नाम संलक्ष्यक्रमध्वनिः तावन्तमर्थं तस्य शब्दार्थशक्तिमूलत्वा सः कुत्रचित् शब्दशक्तिमूलः भवति कुत्रचित् अर्थशक्तिमूलः भवति तस्मात् सः द्वेधादर्शितः द्विविधः अतः संलक्ष्यक्रमध्वनिः द्विविधः शब्दशक्तिमूलः अर्थशक्तिमूलः अतः शब्दशक्तिमूलः अर्थशक्तिमूलः अस्य लोक्षिकान्यपरवाच्यस्य ध्वनेः सः क्रमव्यञ्जत्वात् अनुरणप्रत्ययः नाम असंलक्ष्यक्रमस्ति प्रयासेतोपि शब्दशक्तिमूलः अर्थशक्तिमूलश्च इति द्विप्रकारः ननु शब्दशक्त्या यत्र अर्थान्तरं प्रकाशते सः यदि ध्वनिः प्रकारः उच्यते तदिदानीं क्लेशस्य विषयः एव अपकृतः स्यात् भवन्तः किं वदन्तः सन्ति इत्युक्ते यत्र द्वितीयस्य अर्थस्य प्रतीतिः भवति तत्र भवन्तः संलक्षक्रमध्वनिः इति वदन्ति चेत् तर्हि क्लेशालङ्कारः इत्यस्य नास्ति एकस्य पद्यस्य अर्थद्वयं भवति किल क्लेशालङ्कारे तस्य विषये एव अपकृतः भवितुम् अर्हति इति पृच्छति चेत् नापकृतः नास्ति चेत् कथम् इति आक्षिप्त एव अलङ्कारः
आक्षिप्त एव अलङ्कारः
शब्द ప్రకాశతే
శబ్ద శక్త్యా ప్రకాశతే
యస్మిన్ అనుంత శబ్దేన
యస్మిన్ అనుంత శబ్దేన
శబ్ద శక్తి ఉద్భవోహిత
శబ్ద శక్తి ఉద్భవోహిత
శబ్ద శక్తి ధ్రువ అసంగక్షక్రమధ్వని అస్తి కహ శబ్దశక్తి మూల ఇది శబ్దశక్తి శబ్దశక్తి మూల అస్తి కథం సహ ఆక్షిప్తః భవతి ఆక్షిప్తః నామ ఏదైనా శబ్దైనా ఉత్సాహిన ఏదేషాం శబ్దానాం ప్రయోగరక్షః ఇది కారణతః ఆక్షిప్తః భవతి సహ అలంకారః సహ శబ్దశక్త్యా ప్రకాశ సహ యస్మిన్ అనుక్తః శబ్దేన అనుక్తః ఏవ అలంకారః ఇత్యుక్తే శబ్దేన అనుక్తః ఏవ కశ్చన అలంకారః శబ్దశక్త్యా ఆక్షిప్యతే ఆక్షేపణం నాకు ఏ ఆక్షిపతి ఇత్యుక్తే దూరాన్ ఇయం అన్య ఆక్షిప్తః భవతి తత్ర శబ్దశక్తి ధ్వని అలంకారః నామ కథం భవతి ఇది చేత సాక్షాత్ అలంకారః నామ శ్లేషాలంకారః నామ అర్థద్వయమే సాక్షాత్ శబ్దేన నివేద్యతే ఏకత్వ శబ్దశక్త్యా ఆక్షిప్యతే యస్మాత్ అలంకారః న వస్తు మాత్రం యస్మిన్ కార్యే శబ్దశక్త్యా ప్రకాశతే సైవ శబ్దశక్తి ఉద్భవః ధ్వనిః ఇత్యస్మాకం వివక్షితః యస్మిన్ అలంకారః వస్తు మాత్రం న కశ్చన అలంకారోపి శబ్దశక్త్యా ఏ ప్రకాశతే తత్ర ఏకస్య ఉదాహరణం వస్తుద్వయే శబ్దశక్త్యా ప్రకాశమానే చేతి వస్తుద్వయం శబ్దశక్త్యా ప్రకాశమానం భవతి తర్హి తు శ్లేషాలంకారః ఏక అలంకారః ఇది శబ్దశక్త్యా ఆక్షిప్యతే తర్హి తత్ కథం ఇది ఉదాహరణం శక్యతే ఇదే ఇదనీ ఉదాహరణం దశ్యతే తేకరేవ తత్ ఉదాహరణీతమనోభవేన బలిహిక్కాయ పురాత్రీకృతాయ
పురాత్రీకృత
శశిమచ్చిరోహరై శ్లోక విష్ణుపరోపి అస్తి శివపరోపి అస్తి అర్థద్వయం సంగమయతి కించిత్ కర్తకరణీయం అతః సావధానం వదామి కష్టం నాస్తి తథాపి కించిత్ అవధానం చేసుకోండి ప్రథమం విష్ణు ఇది అర్థం తీసుకోవాలి సహ సర్వదా మాధవ పాయా మాధవ విష్ణు సహ పాయా రక్షతి సహ కీదృశ ఇది చేత్ సర్వదా సర్వం దదాతి ఇది సర్వదా సర్వం దదాతి ఇది సర్వదా సుఖం దదాతి ఇది సుఖదా కష్టం దదాతి ఇది కష్టదా సర్వదా మాధవ పాయ కీదృశ సహ ఇది చేత్ ఏన భక్తమనుభవేన బలిహిక్కాయ పురాత్రీకృత ఏన భక్తం భక్తమనోభవేన ఇచ్చతి కిల తత్ ప్రథమం ఇయం పదవి ద్వారా కరణీయ ఏన భక్తం అనహ అభవేన అవసరం చేత లిఖంతు ఏన భక్తం అనహ అభవేన అనహ ఇది శబ్దస్య శతక ఇత్యర్థ అనహ నామ శతక కృష్ణ భాగవత పురాణే ఏకం రాక్షసం నాయకం అస్తి శతకాసురః ఇత్యేక అతః కీర్షం శరీరం తలిచక్రవర్తి ఆసీ జయార్థం గతమాన్ ఆసీత్ వామన రూపం ధృత్వా అనంతరం శరీరం శ్రీకరణ రూపం ధృతవత్ అత తాదృశకాయేన బలిచక్రవర్తినం సహజితవాన్. అత బలిహికాయ స్త్రీరూపేణ స్వస్య శరీరం ఏన పరివర్తితమాసీత్ ఉద్భృత భుజంగ పదవిభాగే ఉద్భృత భుజంగ భుజంగం హంతి భుజంగ సర్పం నాయితవాన్ సర్పం కార్య సర్పం ప్రేరితవాన్ ఉద్వృత్త భుజంగస్య కర్పిష్టస్య ఉద్వృత్తస్య భుజంగస్య హననం కృతవాన్. ఉద్వృత్త భుజంగః యస్య ఉద్వృత్త భుజంగః అనంతరం రవలయః యః రవలయః మహావిష్ణు అతేపి శబ్దా అతలయ రవలయ అనంతరం గంగా అవలయ అనంతరం రవలయో రవలయ అనంతరం అగం గాం అధారి రవలయ అగం గాం అధారయత్. అగం గోవర్ధన పర్వతం ఉద్ధృతవాన్ భూమి కుర్మావతార సందర్భే సహ భూమి అత గోవర్ధన పర్వతం ఉద్ధృతవాన్ భూమి ఉద్ధృతవాన్ సహ కృష్ణ. శిరోహర అమరాం నామ తమ వదంతి శశిమచ్చిర నామ చంద్రం పీడితవాన్ రాహో శశిమచ్చిరహరం సుత్యం నామ అమరాది స్వయం అంధకక్షయకర సహ అంధకానాం క్షయకర அந்தகனம யாதவானா அந்தகாஹாயிச்சி நமா ராகுவான் சக
அர்த்தம் ஆக்ஷிப்
कौनसा किसी पद विभाग की सदन शुरू होंगी अर्थात द्वय मुख्य स्वयं युद्ध है अतः अत्रेशालंकार शब्दालंकार ननु अलङ्कारान्तरप्रतिभायामपि लेखरूपदेश भवति चर्चितम् भट्टोद्भटेन तत्पुनरपि शब्दशक्तिमूलो ध्वनिरवकाश इत्याशङ्क्य इदमुक्तम् आक्षिप्तः इति नावश्यकम् भट्टोद्भटः इति कश्चन अस्ति सः एवम् उक्तं चेत् अन्यत् किञ्चित् भवति इति उक्तमस्ति तद् न इति वक्तुम् आक्षिप्तः इति उक्तम् अस्ति प्रश्ने अग्रे तदयमर्थः अत्र शब्दशक्त्या साक्षात् अलङ्कारान्तरं वाच्यं सत् प्रतिभासते सः सर्वः लेखविषयः एवं चिन्तनं कुर्मः चेत् शब्दशक्त्या साक्षात् अलङ्कारान्तरं वाच्यं सत् अन्यः अलङ्कारः शेषालङ्कारः नास्ति अलङ्कारान्तरं वाच्यं तत् प्रतिभासते सः सर्वः शेषविषयः भवतु यत्र तु शब्दशक्त्या सामर्थ्याक्षिप्तं वाच्यव्यतिरिक्तं व्यङ्गमेव अलङ्कारान्तरं प्रकाशते सः ध्वनेः विषयः भवतु अन्यः एव अलङ्कारः प्रकाशते सः ध्वनेः विषयः भवतु उदाहरणं दर्शयति अपरालङ्कारस्य वाच्यत्वे श्रेयम् उदाहरणम् इत्युक्ते श्लोकश्रेयोऽपि अस्ति अन्यः अलङ्कारः आक्षिप्तः भवति तस्य उदाहरणम् इदानीं दर्शयति शब्दशक्त्या साक्षात् अलङ्कारान्तरप्रतिभा यथा दर्शयति तस्याः विना विहारेण
तस्याः विना विहारेण
निसर्गादेव हारिणौ
निसर्गादेव हारिणौ
जनयामासदुःखस्य
जनयामासदुःखस्य
विस्मयं नपयोधरौ
विस्मयं नपयोधरौ
अचित् नायिका अस्ति सा हारं निर्मितवती हारः स्यात् हारी इति वदामः हारं न धृतवती अस्ति चेदपि तस्याः प्रयोधरौ वक्षोधौ निसर्गादेव हारिणौ सः हारिणौ नाम मनोहारिणौ सः यद्यपि हारं न धृतवन्तौ तथापि मनोहारिणौ सः तौ कस्य विस्मयं न जनयामासतुः कस्य आश्चर्येण न जनितवन्तौ इति एकं प्रतिमस्ति अत्र शृङ्गारविचारी विस्मयाख्यः कश्चन भावः अस्ति शृङ्गारस्य विचारिभावः सन्ति तत्र विस्मयः एकः विचारिभावः अस्ति सः भावः साक्षात् विरोधालङ्कारः अत्र विरोधालङ्कारः अस्ति अस्य प्रतिभासते विरोधच्छायानुग्राहिणः क्लेशस्य अयं विषयः विरोधालङ्कारः अत्र आक्षिप्तः भवति क्लेशोऽपि अस्ति अत्र क्लेशः अस्ति क्लेश एव आक्षिप्तः न भवति क्लेशः नाम हारी इत्युक्ते हारः अस्ति अस्ति हारी इति मनोहारी इति अन्यः अर्थः क्लेशोऽपि अस्ति किन्तु विरोधालङ्कारः आक्षिप्तः भवति न तु अनुस्वानोपमलिङ्गस्य सन्धिः तथापि संलक्ष्यक्रमध्वनेः उदाहरणः एतत् विरोधालङ्कारोऽपि अस्ति इति शृङ्गारविचारी विस्मयाख्यः भावः साक्षात् विरोधालङ्कारस्य प्रतिभासते विरोधच्छायानुग्राहिणी क्लेशः अस्ति तस्य अयं विषयः विरोधालङ्कारेण सहितस्य क्लेशस्य एतत् उदाहरणम् न तु ध्वनेः उदाहरणं न यथा मम महिमा तत्पुनः इति करोति अस्य उदाहरणम् एकं वक्तुं वदति अलक्ष्यक्रमव्यङ्ग्यप्रतिभासस्य तु ध्वनेः वाक्येन क्लेशेन विरोधेन वा व्यञ्जितस्य विषयः एव असंलक्ष्यक्रमव्यङ्ग्यप्रतिभासस्य तु ध्वनेः वाक्येन क्लेशेन विरोधेन वा वाच्यक्लेशः यः अस्ति तस्य विरोधेन वा व्यञ्जितस्य विषयः एव उदाहरणं पश्यामः तदा ज्ञायते यथा ममैव ममैव एकं पद्यमस्ति इति वदति एकं पद्यं वदामि श्लाघ्याशेषकनुं तनुं सुदर्शनकरः
श्लाघ्याशेषकनुं सुदर्शनकरः
सर्वाङ्गलीलालितः
सर्वाङ्गलीलालितः
त्रैलोक्यां चरणारविन्दः ललितेन
त्रैलोक्यं चरणारविन्देन आक्रान्तलोको हरिः
विभ्राणां मुखमिन्दुरूपमखिलम्
चन्द्रात्मचक्षुर्दत्
आनेयां सदनोरपश्चदधिकाम् रुक्मिणी वः अवता रुक्मिणी युष्मान् रक्षतु रुक्मिण्याः मता कृष्णस्य पत्नी अस्ति किल सा रुक्मिणी युष्मान् सर्वानपि अवता रक्षतु सा कीदृशी रुक्मिणी इति चेत् रुक्मिण्याः शरीरमपि दृष्टवान् स्वस्य शरीरमपि कृष्णन् दृष्टवान् दृष्ट्वा अनन्तरं निर्णयं कृतवान् निश्चयेनापि मम शरीरापेक्षया रुक्मिण्याः शरीरमेव अधिकम् यः स्वतनोः अधिकां रुक्मिण्याः तनुः अङ्गीकृतवान् मतवानितः स्थाने यां स्वतनोः अधिकाम् अपश्यत् मम शरीरस्य अपेक्षयापि एतस्य शरीरमेव उत्तमम् इति अहं उक्तवान् रुक्मिणी भवतां रक्षणं कथं कृष्णस्य शरीरापेक्षया रुक्मिण्यां शरीरमेव उत्तमं कथम् इति पृच्छति चेत् सुदर्शनकरः तस्याः शरीरं कीदृशमस्ति इति चेत् श्लाघ्याशेषतनुः तस्य अशेषा अपि तनुः तनुः शरीरम् अशेषातनुः नाम समग्रमपि शरीरं रुक्मिण्याः शरीरं श्लाघ्यं श्लाघितुं योग्यमस्ति कृष्णस्य शरीरं कीदृशमस्ति इति चेत् सुदर्शनकरः तस्य करः हस्तः केवलं सुदर्शनः हस्तः केवलं द्रष्टुं योग्यः सुन्दरः सुदर्शनकरः इत्युक्ते अर्थद्वयमस्ति प्रथमजने एकमेव अर्थं द्वयम् तस्याः सम्पूर्णमपि शरीरं श्लाघ्यं दर्शनीयमस्ति चेत् एतस्य करः केवलं सुदर्शनः अस्ति अयं सुदर्शनकरः अस्ति अनन्तरं सर्वाङ्गलीलाजित् चरणारविन्दलितेन आक्रान्तलोको हरिः सर्वाङ्गलीलादिषु त्रैलोक्यं रुक्मिण्याः सर्वेषाम् अङ्गानां लीलया त्रैलोक्यमपि चितं भवति सर्वाङ्गलीलादिष त्रैलोक्या सर्वाङ्गलीलादिषत्रैलोक्याः इत्युक्ते तस्याः सर्वेषाम् अङ्गानां लीलया सा त्रैलोक्यं चितवती अयं तु चरणारविन्दललितेन आक्रान्तलोकः एकस्य चरणारविन्दस्य लालित्येन त्रिलोकं सः आक्रान्तवान् अस्ति तावत् लोकम् आक्रान्तवान् एव अधीतवान् इति किमपि न चरणारविन्देन विभ्राणां मुखम् इन्दुरूपम् अखिलम् सा कीदृशं मुखं धृतवती अस्ति रुक्मिणी इति चेत् अखिलम् इन्दुरूपं मुखं धृतवती अस्ति रुक्मिण्याः मुखं साक्षात् चन्द्रदर्शनम् एषः चन्द्रात्मचक्षुः दधति एषः चन्द्ररूपं नेत्रं धृतवान् अस्ति तावत् कुत्रचित् उच्यते विष्णोः नेत्रद्वयं सूर्यः चन्द्रः द्वौ अपि तस्य नेत्रे अतः चन्द्ररूपं नेत्रं एषः धृतवान् एतस्य तु नेत्रं केवलं चन्द्रः तस्यास्तु सम्पूर्णमुखमेव चन्द्रः अस्ति अतः तस्याः शरीरमेव अधिकम् इति धरन्तं धरन्ति विभ्राणां च उत्तिर्वन्तः सा इन्दुरूपम् अखिलं मुखं सा धृतवती अस्ति मुखम् इन्दुरूपम् अखिलं विभ्राणः अस्ति एषः किं विभर्ति चन्द्ररूपं चक्षुः केवलं दधति तथापि सः धरति इति वदति चन्द्ररूपं नेत्रं केवलं धरति अतः एषः सर्वं परिशीलितवान् तस्याः सम्पूर्णमपि शरीरं दर्शनीयमस्ति मम करः केवलं सुदर्शनः तत्र सुदर्शन इत्यत्र सुदर्शनचक्रं यस्य हस्ते अस्ति सः सुदर्शनकरः अन्यः सः सम्यक् द्रष्टुं योग्यः सुदर्शनः सुन्दरः करः तस्य सम्पूर्णं शरीरं सुदर्शनं मम हस्तः केवलं सुदर्शनं सात नीलाभिः जगत् जितवति अहं मम बाह्येन जगत् आक्रान्तवान् अनन्तरं तस्याः सम्पूर्णं मुखमेव चन्द्रः इव अस्ति मम नेत्रं केवलं चन्द्रः इव अस्ति इति दृष्ट्वा सः स्वस्य सम्मोहम् अधिका ऋक्मिण्याः तनुमेव इति या अपश्यत् सः सा ऋक्मिणी एवं या दृष्टा भवति सा ऋक्मिणी अवतार वाच्यतया एव विवेकच्छायानुग्राही क्लेशः प्रतीयते अत्र क्लेशानुग्रहः अस्ति एव सः वाच्यतया एव क्लेशद्वयमपि प्रतीयते सः व्यतिरेकच्छायानुग्राही व्यतिरेकालङ्कारस्य छायाम् अनुगृह्णाति इति वदति इत्युक्ते एतद् संलक्ष्यक्रमेः क्रमध्वनेरेव उदाहरणं संलक्ष्यक्रमध्वनेः उदाहरणम् एकोपि अस्ति तत्र स्वपश्यामः
सर्वे भवन्तु सुखिनः सर्वे सन्तु सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग्